Om Sivaya Namah. Dear listeners of Shaivam.org, the next program is Purana Parayanam. In this, you are about to listen. The title is Shiva Bhakta Vilasam. Thank you. Om Sivaya Namah.
Sri Upamanyu Prakta Shiva Bhakta Mahatmya Madhyama Bhaga Sri Bodhasambandhanatha Charita, where Sri Arunachala Mahatmyam occurs in 292 verses from chapter 15 to 19. Bhagavan copied this portion of Arunachala Mahatmyam in another separate notebook in Malayalam script also. So the title page presented contains both Devanagari and Malayalam scripts.
Sri Upamanyu Prokta Shiva Bhakta Mahatmya Madhyama Bhage Sri Bodh Sambandhanatha Charite Sri Arunachala Mahatmyam Prarabhyate Sri Arunachalam Panchadashodhyayah Upamanyu Tatra Bodha Guru Kanta Puresham Bhumstu Vanstitah Darshite Kinkarai Tagne Arunadvira Sauiti Drishta Gruhe Iti Patah Kantapuram Tiruvarayani Nallur Hitva Tatraiva Sogayat Apita Saniketisah Jignasamanah Panthanam Arunadresa Deshikah Apita Saniketi Unnamala Yumayalodu Asaryagam Dvijam Vrundam Drishtvan Pushpaharinam Aprashiktam Vilokyati Vismera Prasrayanvitah Kutastvam Kutra Tevasah Kimmatra Gatavanisi Iti Bruvantam Vruddhatam Praha Praskalitaksharam Arunadre Aham Prata Tatraiva Vasatir Mama Tadisha Puja Pushpartham Aham Agatavaniti Sashonadre Kiyadura Kantaram Kimukananam Sulana Vignam Mamadya Nayedityaha Drijam Guruhu Nati Dure Girihisoyam Vruddoham Nityamagatah Pushpani Kalya Pujaya Arpayami Maheshitu Sloka 33 Tvamnayadhyena Vishanam Vartmana Sadhunadhuna Ityuktva Pushvam Aharutya Vruddha Gantum Samudhyayav Tam Vruddham Gantum Udhyaktam Guruhu Paprachakautukat Arunadre Anubhavam Srotum Ichhami Vistarat Ityevam Upta Krutihina Savruddha Sambandhanathena Kutuhalena Mahatmya Uchai Arunachalasya Prachakrame Vaktum Anukramena Iti Sri Upamanyu Bhakta Vilase Madhyama Bhage Panchadashodhyayah Atha Sodashodhyayah Upamanyu Vruddha Adhara Bhuto Dharane Varunalaya Vasasah Arunachala Evayam Taranendu Shikhamane Viranchi Narayana Yo Vivada Shamakarana Agnishtamba Sambhumoti Pura Pradur Bhavuvayah Bahusyamiti Sankalpam Vitanvanat Sadashivat Adav Abhutam Sambhutav Chaturmukha Chaturbhujav Balavanahamityetav Sahankaru Parasparam Yuddham Baddha Jayaspardhav Chakratuhu Lagu Vikramam Tayoho Niryuddhato Jate Kadane Lokanashane Anugrahaya Lokanam Indu Mauli Achintaya Sarvatra Vishwadhikata Mamai Vetya Pijanato Anayoho Kadanam Nochet Rochyami Syat Jagakshayah Iti Nishitya Sapadi Swayameva Sadashivah Etayoho Yuddhato Madhye Vannishtamba Samudhyayav Lokan Vilangya Sakalan Adastadu Paristitam Tam Jvalantam Samikshyanstam Vishmayav Vishmitav Yupimav Shambhurupastam Amayam Idam Adyanta Varjitam Upari Ada Parichetum Vidhi Vishnu Vyavasthitah Satanmulam Harihidrashtum Kurodavan Nikhanam Mahim Brahmachatta Shiro Drashtum Aunsasan Kamagahat Nada Darsha Satatan Mulam Kshmam Khatva Pirasatalam A Brahmanda Tatam Brahma Tashiro Nada Darsha Chat तौ उभौ तत्परिमाणम् अदृष्ट्वा नष्टचेष्टितौ क्षीण गुणापक्षवेगौ पुनरेव समीहतु। महो महद् अनाद्यन्तम् किमेतद् इति तौ स्थितौ निरीहौ निरहंकारौ वाणी प्राह शरीरिणि शम्भोरूपमयस्तम्ब सम्भूतो वाम् अनुग्रहे तस्मादिवाम् समुद्भूतौ सर्वं च सचराचरम्। तश्रुत्वा तौ अविज्ञाय विभुम् विश्वादिकम् शिवम् अहम् कर्ता अहमित्यावाम् वृथाहङ्कारकारणो अभूव निरहङ्कारौ भूयोऽपि तदनुग्रह इत्येतौ जातमन्दाक्षौ तदा तुष्टुव तत्शिवम्। नमस्ते लिङ्गरूपाय चरस्थावरमूर्तये भुवनैकपरारम्भ मूलस्तम्भाय शम्भवे। प्रसीद परमेशान प्रसीद परत पर आवयोः दर्शयात्मानम् अज्ञानन्तिमिरान्धयोः। इति त्रिनेत्रपुत्राभ्याम् स्तोतै तत्र स्तुतस्तत प्रसन्न प्रादुरभवत् प्रणतौ प्राहचात्मजौ। परितुष्टोऽस्मि भवतो भक्ति प्रवण चित्तयोः भवत् प्रार्थित सिद्ध्यर्थम् प्रादु आसम् प्रसन्नधीः। वरम् ऋणुतम् इत्युक्तौ तौ व्यजिग्नीपताम् उभौ भवत् पादाम्बुजे भक्ति आवयो अस्तु निश्चला। पुनरेवम् अहंकारो मा भूत् विश्वादिकेश्वर महद् आसीत् इदम् रूपम् किञ्चास्मत् वरदम् विभो। आविर्भूय सदैवात्मम् अत्र वर्तस्व शङ्कर उपसंवृत्य तेजस्ताम् अरुणाचल संज्ञया। भजस्तावर लिङ्गत्वम् लोकानुग्रह कारणा नो चेत् त्वत्तेजसालोक तप्यमानो भविष्यति। भजताम् ताम् विभो भूयात् भक्तिमुक्तिश्च शाश्वती इत्युक्तो ब्रह्म विष्णुव्याम् महादेवो दयानिधि। ततास्तु इत्येतत् तथैवासीदानन्दमयोऽप्यसौ किञ्चेदम् श्रूयताम् भद्र पाले वाचल कन्यका। तपस्तप्त्वा महेशस्य लब्धवत् अर्धविग्रहम् सम्बन्ध उवाच। विशिष्य कथ्यतामेतत् वृद्धतापसशेखर कथम् वामार्दताम् प्राप्ता शम्भो अचल कन्यका। वृद्ध उवाच पुरा कैलास शिखरे सर्वदेव नमस्कृते बहुरत्नगणाकीर्णे कल्पकारामशोभिते रत्नस्तम्भ सहस्राढ्यम् महदास्थानमण्डपम् आससाद महादेव कदाचित् पार्वती सखः। श्लोक नंबर 30 सेकेण्ड् लैन् कदाचित् रहसि प्रीता निजाज्ञावशवर्तिनम् रमणम् जानति मुग्धा पश्चात्तभ्येति सादरम् कराभ्याम् कमलाभ्याम् नेत्राणि अस्य जगद्गुरु। विदधे लीलया शम्भो किम् भवेदिति कौतुकात् चन्द्रादित्याग्निरूपेषु विहितेषु अक्षुषु क्रमा अन्धकारो भवेत् तीव्र चिरकाल भयङ्करः निमेषार्धेन देवस्य जग्मो वत्सर कोटयः। देवी लीला समुत्थेन तमसा वोज्जगक्षय तथा सम्बोधितो देवैः जगक्षय निवेदिभिः। विसृज श्रेणी गौरीति करुणामूर्ति अब्रवीत् वीससर्जरा देवी पिधानम् हर चक्षुषाम् सोम सूर्याग्निरूपाणाम् प्रकाशम् अभवत् जगत् शम्भुवच अविचार्य कृतम् मुग्धे भुवन क्षय कारणात् अयुक्तमिव पश्यामि जगन्मास्तवे हितम् अहमपि अखिलान् लोकान् संहरिष्यामि संक्षये। प्राप्तकाले त्वया मुग्ध्यात् अकाले प्रलयम् कृत इति शम्भो वच श्रुत्वा धर्मलोभयाकुला। किम् करिष्यामि तच्छान्ते इत्यवादि पतिम् प्रिया शम्भुवच मन्मूर्ते तावकेया वा प्रायश्चिति इहोच्यते। तस्मात् लोकान् रूपम् ते प्रायश्चितम् विधीयते अस्ति काञ्चीपुरी ख्याता सर्वभूति समन्विता। तत्र कम्पेति विख्याता सरित्पातकनाशिनी तत्र च्यूतद्रुमश्चैको राजते नित्ययौवनः। तपसा तत्त्वम् आर्च्य विपापा समुपेष्यसि इत्यादीक्षण महादेव श्रीमद उपमन्यु भक्त विलासे मध्यम भागे श्री बोध संबंधनाथ चरिते श्री अरुणाचल महात्म्ये षोडशोध्याय अपसातत्र मामर्च्य विपापा समुपेश्यसि इत्यादीक्षण महादेव सा तत्र आगत्य च ईश्वरी तपश्चचार कम्पायां द्वात्रिंशत् धर्म कर्मठा कृत्वा च सैकतम् लिंगम् पूजयामास सादरम् तदा देव शिव साक्षात् संशोधयितुम् अम्बिकाम् कम्पानिद्यः प्रवायेन महता पर्यवेष्टया लिंगभंग भयात् देवी शम्भुम् आलिंग्य शासिता चकार संबराराते विजय स्तंभ मंजसा एकाम्र स्वामिनो लिंगम कुश कंकण मुद्रितम अथा ताम अब्रवीत देवीम कापि वा पशरीणी त्वयार्चितम इदम लिंगम भूयाद् भुवन भूतये अहम हि तैजसम रूपम आशाय वसुदातले वसामि सर्व सिद्ध्यर्थम अरुणाचल संज्ञया तत्र त्वं गौतमादेशा तप कुरुत आश्रमे श्लोक 49 तदा ते दर्शयिष्यामि तैजस समरूपमात्मना इत्युक्त्वा शंकरेणाम्बा गौतमाश्रमम् आपसा तप कर्तुम् समायातम् शिवादेशान् निजान्तिकम् प्रावेश्याश्रमम् अभ्यर्च देवी मा आस गौतम ज्ञातो योगान्मया हेतु शिवादेश तवागते अत्रत्य भक्त रक्षायै देवो व्याजेन केनचि तत्र गत्वा तपः कुर्या इति त्वाम् प्राहिणोत् इह शिवास्पदानाम् मुख्यान्ताम् इदम् मुख्यतमम् श्रुतम् शम्भुवावीर्भुस्तम्भो यत्र विष्णुविरञ्चयोः शम्भुः सम्प्रातस्तभ्याम् यातः स्थावरलिङ्गताम् अरुणाद्रि इति ख्यात प्रशान्तो य प्रकाशते प्रभूषन्नवते सोऽयम् व्यतीतानाम् च वेदसाम् वेदसविदधे विश्वम् विष्णुनाभिसमुद्रव कदाचित् कर्तुकामेन योगिनाम् तपसो व्ययम् शक्रेण प्रार्थितो वेदा ललिताम् अश्रुतश्रियम् अतिरूपाम् इमाम् दृष्ट्वा विदेशवित्कृतेन्द्रियः दिक्षु प्रदक्षिणम् यात्वा अस्याम् आसीत् चतुर्मुखः रन्तुम् बलात् उद्यतेऽस्मिन् सद्व्यासात् साम् मृगी सति अधावतन्वधावताम् ब्रह्मासोऽपि मृगो भवन् तथा खगीम् सतीम् व्योम्निम् ताम् यान्तिम् अन्वगात् खगः सा तेनानुदृता प्राप शरणम् चारुणाचलम् तस्याम् शरण्य रक्षेति क्रोशत्याम् अरुणाचल उदस्तास्थावरात् लिङ्गा क्वचित् व्याघो धनुर्धर योद्धुम् समुद्यते व्याघे वीतमोहो भवत् विधिः प्रसन्नश्च प्रणम्य एनम् अस्तोषीत् अरुणाचलम् अपराधम् समश्वयति प्रणतम् पद्मसम्भवम् तस्मात् आविर्भवन् लिङ्गात् अवदशिवदशिव कृतानि यानि ह्य ब्रह्मन् अरुणाचल दर्शन तानि सर्वाणि पापानि विनश्यन्ति न संशय कैलासमेरु शैलादि कुलशैलेषु सर्वदा सदृश्य कश्चित् एवाहम् अरुणाद्रि अहम् स्वयम् शत प्रदक्षिणम् मौनि कृत्वा निष्कल्मशोभव अत्र कीर्ते ब्रह्मनाम्नि स्नात्वा शम्पुरि पूज्य माम् कृत्वा प्रदक्षिणम् मौनि विज्वरो विश्वसृग्भव हति इतस्तेन शिवेन वेदा श्रीब्रह्मतीर्थे विहितावगाः प्रदक्षिणीकृत्य समर्च्य देवम् स्वर्गाधिपत्यम् स जगमभूय इति श्रीमद् उपमन्यु भक्तविलासे मध्यमभागे श्रीबोध सम्बन्धनाथ चरिते श्री अरुणाचल महात्म्ये षोडशोऽध्यायः बोध सम्बन्धनाथ चरिते सप्तदशोऽध्यायः उपमन्यु गौतम उवाच श्लोक 1-13 पुरा कल्पावसानेऽपि सुप्ते नारायणे सति विश्वम् तमोवृतम् दृष्ट्वा विषेदु नित्यसूरयः आत्मस्थम् चिन्तयामासु मनसा ते महेश्वरम् विश्वम् सृजेति विज्ञप्ति तैः शिव शिवश्चासृजसुरान् त्रयस्त्रिंशत् कोटिभिः तैः पद्मनाभ प्रबोधितः काले स्वापम् ईशस्य माश्रयेति व्यचिन्तयत्। अकालनिद्रा दोषस्य प्रायश्चिन्तम् करोमि किम्, शङ्करम् शरणम् यामि सर्वदोष प्रशान्तये इति चिन्तयत तस्य पुरा तेजोमय शिवः। ददत् श्वेतम् हरिम् भक्त्या नत्वा तुष्ट्वा वः हृष्टदि। ततः स्तोत्रतोषिता शम्भु प्राहतम् प्राञ्जलिम् स्थितम् अरुणाचलरूपेण तिष्ठामि धरणीतले। तत्र दर्शनमात्रेण भविता ते तमः क्षयः, पुरावरो मया दत्त पूर्वस्मै तत्र विष्णवे। मेघमुक्त जलस्रोतो नद्य तत्र भयम् गता, अन्तर निमयतेत्वेन न निर्यातिम् तथा क्वचित्। अतः तद्दर्शनेनैव क्षीयन्ते पापसञ्चया, यद्यद् इष्टम् तत्तद् अत्र लभ्यते भजताम् नृणाम्। त्वम् नत्वा अद्रिम् समर्च्याद्रिम् अवने अवनम् कुरु इत्यादिश्य हरिम् तत्र पुराराति स्थिरोदरे। ततः प्रसन्नदी विष्णु अरुणाचलम् आगतः, स्नात्वा ब्रह्म सरस्यस्मिन् शाम्भवीम् भक्तिमाश्रितः। पद्भ्याम् प्रदक्षिणम् कुर्वन् अभ्यर्च्य सुसमाहितः, विधूत पापो विश्वस्य पालनम् विदते हरि। भास्करोऽपि तम् अभ्यर्च्य ग्रहाणाम् प्रथमो भव, दक्षशापहतश्चेन्दु लेभेर्वृद्धिम् तदर्चना। 14-32 शक्रो वृत्रादि हननात् सञ्जातै बहुबाधकै, मुक्तसुरादिनाथो भू अरुणाचल सेवना। सिद्धचारण गन्धर्व देव विद्याधरादय अरुणाचलम् अभ्यर्च्य लेभिरे स्वम् स्वम् ईप्सितम्। पूषात् तत्पूर्व दिग्भागे विश्वामित्रस्तु दक्षिणे, वरुणः पश्चिमे भागे, त्रिशूलश्च उत्तराश्रय। योजनद्वय पर्यन्ते सीमाशैलेषु संस्थिता, चतस्रो देवतास्तेता सेवन्ते श्रोण पर्वतम्। उत्तरे शिखरे तस्य वटवृक्षो विदृश्यते, सदा ते सिद्धवेशः सन् महेशो यस्य मूलतः। दृश्यते मण्डलाकारा यच्छाया महती सदा, श्रोणादिशोभतेष्टासु दिक्षु लिङ्गै सदाष्टभिः। तत्राभूशिव भक्तानाम् स्थानम् देवेन निर्मितम्, बकुलो वामदेवेन मूले च सेव्यते सदा। अगस्त्यश्च वसिष्ठस्य सम्पूज्यारुणभूधरम्, संस्थाप्य लिङ्गे विमले लेभाते तादृशम् तपः। पुण्या श्रोणनदीश्चात्र प्रवर्तति अमलोदका, पुण्या श्रोणनदी चात्र प्रभवति अमलोदका, पुण्या पेण्णा नदी चात्र सेवति परितस्सदा। अभ्यर्ष्य तपसा शम्भु अहमप्यरुणाचलम्, अपूजयन् सूक्ष्मलिङ्गम् सर्वलोकोपकारतः। निहत्य शत्रून् नृपतिन् लब्धराज्यै नृपै पुरा, प्रत्येकम् विविधै भोगै अर्चित श्रोण शैलरात्। शैवम् लिङ्गम् शैलरूपम् इदम् त्वमपि पूजयः, अत्र देवि तपःसिद्धि भवत्या प्राप्यते परा। कथम् अग्निमयम् लिङ्गम् इदम् शान्तम् कथम् पुनः, इति देव्यात् आराद्भूयः पृष्टो मुनि उवाच ताम्। अग्निशैल कृतयुगे त्रेतायाम् मणिपर्वतः, द्वापरे काञ्चन गिरिः कलौ भरतम् काचलः। अग्निशैल कृतयुगे त्रेताया मणिपर्वतः, द्वापरे काञ्चनगिरि कलौ मरत काञ्चलः। अग्निरूपम् इमम् शैलम् पुरा कृतयुगे सुरा, दूरे सिता स्तुतिश्चक्रु आगन्तुम् अक्षमाः। असौ यस्ताम्रोऽरुणः उत बहु समुङ्गलः, इति तम् श्रुतयः सर्वा गिरिरूपम् सुवन्तिः। नमस्ते अरुणरूपाय शिवाय परमात्मने, शीतलो भव श्रोणाद्रे या हि सर्वाधिगम्यताम्। इति स्तुति परै देवै प्रार्थितो वह्निपर्वतः, शान्त बाह्याग्नितापोभूत् अग्निगर्भान्तरोचलः। तीर्थानि सुबहुन्त्यास्त तस्य दिक्षु विदिक्षु च, तीर्थम् ऐन्द्र सुदिक्ष्येन्द्रम् పూతో యత్ స్నానతో హరి ఆగ్నేయం పావనం తీర్థం అగ్నికోణ సముద్భవం అత్ర స్నాత్వా అహోవని పరశ్రీ సంగపాతకౌ యాభ్యం నామ మహాతీర్థం యమదిగ్భాగమాశ్రితం క్షయం బ్రహ్మాశ్ర సంజాతం యత్ర స్నాత్వా జహౌ యమః నైరుతం తీర్థమస్త్యత్ర భాగే దక్షిణ పశ్చిమే వ్యాజైష్ట భూత వేతాళాన్ యత్ర స్నాత్వా ముని వ్రజ వారుణం తీర్థమస్త్యత్ర వారుణీం దిశమాశ్రితం యత్ర స్నాత్వా పయోధీనాం వరుణో అవత్ ఈశ్వర పశ్చిమోత్తర దిగ్భాగే తీర్థం అస్తి యత్ర మారుతం యత్ర స్నాత్వా మరుత్పూర్వం జగత్ ప్రాణత్వమాశ్రితః సౌమ్యం అస్తి ఉత్తరే తీర్థం కనకాంబురుహాంచితం తత్ర స్నాత్వా మహావిష్ణు బభూవ కమలాశకః ఐశాన్యస్తు మహాతీర్థం ఐశానీం దిశమాశ్రితం యస్మిన్ అవగ్రహాశ్ర స్నాత్వా గ్రహభావం ప్రపేదిరే శివస్య సన్నిధౌ బ్రహ్మ తీర్థమస్తి మహత్తరం వాణీ భైరవైరంబ దుర్గా స్కందాభిరక్షితం సన్నిధౌ దేవదేవస్య తీర్థం శైవావిధం మహత్ అత్ర బ్రహ్మ కపాలేన వియుక్తో బుత్స భైరవః 42-50 గాంగం వాసిష్టమాగత్స్యం వైష్ణవం సౌరినామకం లక్ష్మీతీర్థం తథా స్కందం వైశ్వదేవం తథాశ్వినిం ఏవం అన్యాని తీర్థాని సతసో అథ సహస్రశ సంతి శ్రీ శోణశైలేశం పరితః పావనాన్యహో గంగా చ మూల భాగస్థా యమునా గగనే స్థితా సోమోద్భవా శిరోభాగే సేవంతే శోణ పర్వతం సర్వాణ్యపి చ పుణ్యాని తీర్థాని శివ సన్నిధౌ సదూపహార వేళాయాం దృశ్యాని కిల మానవై స్వామిన్ శోణాచలాత్మా త్వం అనాసాద్య మహావపు కథం అత్రావ్యర్చ్యామి మర్త్యలోకోచితార్చినై ఇతి విజ్ఞాపితః పూర్వం మయా శోణాచలేశ్వరః అన్వగ్రహిత అమేయాత్మా ప్రణతం మాం దయానిధి అహం తు సూక్ష్మలింగాత్మా ప్రకాశిష్యే మహాతలే ఆగమోక్త క్రియాచార్యై పూజాం మే ప్రతిపాదయ పంచాశత్ వర్ణ సంయుక్తం లింగం మే సూక్ష్మం అద్భుతం అరుణాద్రీశ్వరాభిఖ్యం సంపూజయ తపోబలై ఇత్యాదిశ్య మహాదేవ స్వయంభూ విమలం మహత్ రూపం మే దర్శయామాస సూక్ష్మలింగాత్మనా శివః 51 ఆన్వర్డ్స్ విమలం లింగం ఆలోక్య సూక్ష్మం తత్ స్వయం ఉత్థితం అశేష వరుణాపేతం కృతార్థ హృదయోభవం స ఏవ కరుణాంబోధి పూజాం విస్తారయన్ స్వయం విశ్వకర్మణమాదిశ్య పురం శ్రీధామ చాతనోత్ ఏ ప్రయచ్చంతి దేవస్య పూజోపకరణాదికం భుక్త్వా భోగాన్ మహేశస్య సాయుజ్యం ప్రాప్నువంతి తే అష్టమూర్తిమయం లింగం శాంభవం తేజసత్విదం నత్వా ప్రదక్షిణం కుర్వన్ పాతకాని వినిర్దహేత్ న పునః సంభవ తస్య య కరోతి ప్రదక్షిణం శోణాచలాకృతే నిత్యం నిత్యత్వం ధ్రువమశ్నుతే స్నాతో అపి శుద్ధవేష సన్ భస్మరుద్రాక్ష భూషితః శివస్మరణ సంహృష్టో మండకుర్యాత్ ప్రదక్షిణం కృతే తు అగ్నిమయం శైలం త్రేతాయాం మణిపర్వతం ద్వాపరే చింతయేతేమం కలౌ మరత కాచలం అథవా స్ఫాటికం రూపం అరుణం చ స్వయం ప్రభం ధ్యాయన్ విముక్త సకలై పాపై శివపురం వ్రజేత్ పాదై ప్రదక్షిణం భూమౌ కుర్వతాం పాదపాంశుభిః పావితా మహతీ వీథిః దృష్ట్వా శివపదప్రదా అంగ ప్రదక్షిణం కుర్వన్ తత్క్షణాస్వర్ణతాం వజేత్ తాప్తో వజ్ర శరీరత్వం న తుష్యేత్ మహితలే స్వయం చ గణ సంయుక్త శంభో దేవర్షి సంయుతః ఉత్తరాయణగే సూర్యే కరోతి స్వ ప్రదక్షిణం తవాహేన న కుర్వీత జనో జాతు ప్రదక్షిణం ధర్మలుప్తమనా జానన్ శివాచార పరిప్లర్మకేతు పురారాజ బ్రహ్మలోకాత్ ఉపాగతః శివం ప్రదక్షిణీకర్తుం తురగేణాభ్యరోచయత్ క్షణేన తురగో జాతో గణనాథ సురార్చితః ప్రతిపేదే పదం శైవం विमोच्य धरणीपतिम् वीक्ष्यन्तम् वाहनम् भूमौ गणनातावपुर्धरम् पदा प्रदक्षिणी कृत्वा स्वयं च गणप अभवत्। अत्र वज्राङ्गदोराज वीतसारो व्यतिक्रम पुनस्तद्भक्ति माहात्म्य शिवसायुज्यम् आप्तवान्। अस्य प्रदक्षिणे नैव कान्तिशाली कलाधरौ विद्याधरेश्वरौ मुक्तौ दुर्वासशापबन्धनात्। तौ हि दुर्वासशापात् त्वया त्वम् मृगनाविताम् प्राप्य प्रदक्षिणेनास्य पुनः विद्याधरायितौ। आसीत् वज्राङ्गदो नाम पुरा पाण्डेषु पार्थिवः आश्रयस्य भुजास्तम्भे वसुधा सालभञ्जिका। कदाचिन्मृगयार्थी स सञ्चरन् स तुरङ्गम् अरुणाचल पर्यन्त कान्तारम् समगाहत। स तत्र बहुलामोदम् कञ्चित् कस्तूरिका मृगम् दृष्ट्वा त्वम् अनभक्तुरग प्रावर्तयत कौतुकात्। स मृगोऽनुदत तेन भीतशोण महीधरम् प्रादिक्षण्यात् परिधाय पवमान मनोजवः। ततः समग्रसारोऽपि राजा जात श्रमश्वसन् पपातवाहाद्विच्छाय क्षीण पुण्य इवाभ्रतः। ततश्चिन्ताकुले तस्मिन् उत्थाने अपि अपटीयसि तटिच्छता जतालेव सहसा द्वौ अदृश्यतः। निरीक्षमाण एवास्मिन् हित्वा तिर्य कलेवरम् क्षणात् तुरङ्गसारङ्गौ खेचरत्वम् उपागतौ। अवोचताञ्चनृपतिम् आश्चर्याविष्टमानसम् हरन्ते विवदांशु जालै तस्यातिजम् तमः। राजन् अलम् विषादेन श्रवणादेश प्रभावतः एतान् जानिहि सज्जातान् तनयौ चेद्रशिन्दसाम्। अवैः राजन् आवाम् हि पुरा विद्याधरेश्वरौ एकदा स विद्ये मेरो प्राप्तौ दुर्वाससोवनम्। प्रविशावतदुद्यानम् प्रसूनापचयोत्सुकौ दहन्निव दृशा पश्यन् अभर्ष्यत नौ मुनिः। पापैः प्रचुरिताचारौ नौ युवामिति गर्वितौ ज्वलता क्रोधवह्निर्मे शलभत्वम् उपागतौ। स एतत्पादसञ्चारे दूषत एत पातके हयो भवतु भूलोके परारोहण पीडितः। अपरोऽपि अयम् अत्युग्रे पततु अचलकन्दरे प्रसूनगन्धलोभान्धो गन्धसारङ्गताम् गतः। इति तेन उग्ररोषेण शापवज्रे निपातिते अस्मदाराधितेनैव अन्वग्राही महात्मना। शापस्य भविता शान्ति अरुणाद्रिप्रदक्षिणा एतत् प्रदक्षिणम् सर्व क्षोणिचक्र प्रदक्षिणम्। तथा हि शङ्कर क्षोणि प्रदक्षिणकरो गुहा एतत् प्रदक्षिण कृते प्राग्विघ्नाय फलम् ददौ। इति उक्त्वा निर्गते तस्मिन् दुर्वाससि तपस्विनी आवाम् तुरगकस्तूरी हरिणाम् गाव भूवतौ। आवाम् शोणाद्रिनाथस्य प्रापितौ च प्रदक्षिणम् पादप्रचार पुण्येन प्राप्तवन्तौ निजाकृतिम्। वाहारोहण दोषेन तवासीत् ईदृशी दशा कुरु प्रदक्षिणम् पादचारी मृगमदार्तितै। कल्हारै पूजयेशानम् देवम् मृगमदप्रियम् यावती तव सम्पत्ति तावती मखिला विभव। प्राकार गोपुराकार नवीनकाराय कल्पय अचिरादेव सिद्धिस्ते प्राक् सुरेन्द्र भविष्यति। इत्थम् निजगतीनीम् तौ कान्तिशाली कलाधरौ वज्राम् गत शताचक्रे श्रोणाचलपुरे स्थितः।